सदानिम्बवृक्षस्य मूलाधिवासात् सुधाश्राविणं तिक्तमप्यप्रियन्तम् तरुं कल्पवृक्षाधिकं साधयन्तम् नमामीश्वरं सद्गुरुं श्रीसाईनाथं नमामि ईश्वरं सद्गुरुं श्रीसाईनाथं।